एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। प्रधानमन्त्री बालेन्द्र शाह निगदति देशे सुशासनस्य व्यवस्थायाश्च संस्थापनाय भ्रष्टाचारस्य समूलम् अन्ताय च वर्तमान सर्वकारः दृढतापूर्वकं क्रियाशीलो वर्तते। प्रतिनिधिसभायाः ह्यस्तनोपवेशे सांसदैः सह विहिते प्रश्नोत्तर कार्यक्रमे प्रधानमन्त्री शाह सर्वकारेण स्वस्य कार्यकालस्य प्रथमवर्षम् भ्रष्टाचारस्य नियन्त्रणस्य सुशासनस्य स्थापनायाश्च वर्षस्य रूपेण गृहीत्वा सम्पूर्णम् ध्यानम् तत्रैव केन्द्रीकृतम् अस्तीति उदैरयत्। उपवेशे नेकपा एमाले दलस्य सांसदेन पद्मा अरियालेन पृष्टस्य प्रश्नस्य प्रत्युत्तरे प्रधानमन्त्री शाह लिपुलेक लिम्पियाधुरा क्षेत्रयोः सीमा समस्याया समाधानस्य विषये सर्वकारेण कूटनीतिकं पत्रं प्रेषितमस्ति। वार्तायाः माध्यमेनैव समस्यायाः समाधानत्वेन सर्वकारेण कार्यं विधीयमानमस्ति इति च अगदत्। प्रधानमन्त्री शाह सीमा विवादस्य समाधानाय भारत चीन देशाभ्याम् कूटनीतिकं पत्रं प्रेषित तमस्ति। बेलायत देशेन सहापि विषयेऽस्मिन् वार्ता विधीयमानास्तीति अगदत्। उपवेशे सांसदानां प्रश्नान् समाददानः प्रधानमन्त्री शाह भूम्यावासविहीनानां जनानां समस्यायाः व्यवस्थितरूपेण समाधानत्वेन सर्वकारः कार्यं विदधानोऽस्तीति उदैरयत्। प्रधानमन्त्री शाह सहकारी संस्थानां वित्तप्रत्यावर्तनस्य सन्दर्भे सर्वकारेण सहकारी संचालकानां वित्तमेव पीडितेभ्यः प्रदीयमानम् अस्ति, वै प्रसारिते सर्वकारस्य वित्तं प्रत्यावर्तमानम् अस्तीति समाचारे सत्यता नास्तीति च समस्पष्टयत्। रासपा दलस्य सांसदेन खुशबू ओली इत्यनया पृष्ठे विद्युतः शुल्कग्रहणेन सह सम्बद्धे प्रश्ने प्रधानमन्त्री शाह सम्प्रत्येव देशः वैद्युतयुगे प्रवेशनस्य अवस्थायां नास्ति, सम्प्रत्येव सर्वैः नागरिकैः वैद्युतचुल्लिकायां भोजनस्य पाचनस्य भारवहनस्य अवस्थायां देशो नास्तीति च चर्चयन् सन्दर्भेऽस्मिन् व्यवस्थां संस्थापयितुं करग्रहणस्य व्यवस्था विहितास्तीति अवोचत। उपवेशे प्रधानमन्त्री शाह प्राधिकरणस्य सामर्थ्यस्य विकासाय सर्वकाराय वित्तम् अपेक्षितमस्ति, तदर्थमेव सर्वकारेण विद्युति प्रतिशतं पञ्चभिः अंकैः करः गृह्यमाणोऽस्तीति च समस्पष्टयत्। एवमेव गत भाद्रस्य त्रयोविंश चतुर्विंश दिवसयोः आन्दोलनस्य सन्दर्भे गौरी बहादुर कार्की आयोगस्य राष्ट्रिय मानवाधिकारायोगस्य च प्रतिवेदनयोः क्रियान्वयनस्य सन्दर्भे पृष्टं प्रश्नम् उत्तरयन् प्रधानमन्त्री शाह सर्वेषां प्रतिवेदनानाम् अध्ययनं विधीयमानम् अस्ति, क्रमशः समेषां क्रियान्वयनं भविष्यतीति च उदैरयत्। अत्रान्तरे नेपाल भारतयोः सीमा सन्दर्भे प्रधानमन्त्रिणा बालेन्द्र शाहेन संसदी व्यक्ति विषये संचार माध्यमेषु पृष्टानां प्रश्नानां विषये परराष्ट्र मन्त्रालयेन स्पष्टीकृतं वर्तते। नेपाली भूमिम् लिपुलेक क्षेत्रम् सम्बूय मानस सरोवर तीर्थयात्रा मार्ग सञ्चालने आनीतो स्थिति विषये नेपाल सर्वकारस्य आधिकारिकी धारणा गत वैशाखस्य विंशे दिवसे एव स्पष्टीकृता स्थिति परराष्ट्र मन्त्रालयेन ज्ञापितम् वर्तते। विषयेऽस्मिन् नेपाल भारताभ्याम् एव कूटनीतिक माध्यमेन समस्यायाः समाधानस्य प्रतिबद्धता च व्यक्ता स्थिति परराष्ट्र मन्त्रालयेन प्रकाशितायम् विज्ञप्तौ ज्ञापितम् वर्तते। विज्ञप्तौ नेपालस्य अन्तर्राष्ट्रिय सीमानः षोडशोत्तराष्टादश शततम सुगौली सन्धिना निर्दिष्टाः वर्तन्ते। सुस्ता लिम्पियाधुरा लिपुलेक कालापानी क्षेत्रेषु सीमांकनम् अवशिष्टम् अस्ति, एतानि स्थानानि विहाय अन्येषु कतिपय स्थानेषु सीमातिक्रमणस्य भूमेः भोगाधिकारस्य च समस्याः विद्यमानाः वर्तन्ते इति च स्पष्टीकृतम् अस्ति। अस्मिन् सन्दर्भे प्रधानमन्त्रिणा शाहेन संसदि उल्लिखितो विषये उल्लिखिता विषय दश गजेति सीमारेखायाः अतिक्रमणेन सह सम्बद्धोऽस्तीति परराष्ट्र मन्त्रालयेन स्पष्टीकृतम् वर्तते। राष्ट्रिय सभाया ह्यस्तनोपवेशेन प्रतिनिधिसभातः ससन्देशं प्राप्तम् एतद् विक्रम वर्षीयं प्रतिनिधिसभा सदस्य निर्वाचन सम्बद्धं प्रथम संशोधन विधेयकम् एतद् विक्रम वर्षीयं मतदातृनामावली प्रथम संशोधन विधेयकं च पारितीकृते स्तः। प्रधानमन्त्रिणा बालेन्द्र शाहस्य पक्षतः विधि न्याय संसदीय विषय मन्त्रिणा सुविता गौतमेन विधेयके इमे पारितीक्रियतामिति निगद्य प्रस्तुतौ प्रस्तावौ पारितीकृतौ वर्तेते। तत्पूर्वं प्रतिनिधिसभातः ससन्देशं प्राप्तं विधेयकमाधृत्य प्रकरणगतं विमर्शनं सम्भूतम् आसीत्। विधेयकमाधृत्य सम्भूते विमर्शने सांसदैः उत्थापितान् प्रश्नान् उत्तरयन्ती विधिमन्त्री गौतमः समावेशी प्रतिनिधित्व सम्बद्धाः संशोधन प्रस्तावाः निर्वाचन सम्बद्धस्य विधेः संशोधनस्य क्रमे सम्बोधयिष्यन्ते इति प्रतिबद्धताम् अभिव्यनक। अत्रान्तरे राष्ट्रियसभायां महिला समन्वय समितिः संघटिता अस्ति। समितौ सांसदाः दुर्गा गुरूङ, पूजा चौधरी, मीना सिंह रखाला, राजेन्द्र लक्ष्मी गैरे, रेणुचन्द, विष्णुकुमारी सापकोटा, सम्झना देवकोटा च वर्तन्ते। राष्ट्रियसभायाः अपरोपवेश अद्य दिवास सपादैकवादने वसति। इति समाचाराः।